जन्मदिनस्य शुभकामना श्लोकावली, जन्मदिनस्य पुण्येऽस्मिन् हर्षो वर्धतु ते सदा। आयुश्रीर्बलं यशश्च वर्धन्ता सर्वदा शुभम्। दीर्घायुर्भव सौभाग्यं सुखं शान्तिं च विन्दतु। तेजस्वी भव सर्वत्र भव जीवन सिद्धये। हस्यं ते मुखपद्मेस्तु दुःखं दूरं पलायतां। सर्वे ते सन्तु सौख्येन जीवनं भवतु शुभम्।
नित्यां बुद्धिं च लभसे लक्ष्मी स्थातु गृहे तव। कर्मणा वर्धसे नित्यं यशोदिगं तमाव्रजेत्। स्वप्ना सिद्ध्यं तु ते सर्वे कामना पूर्यतां सदा। भवजीवन मार्गे अस्मिन् दीपस्याह स्वयमेव हि।
स्नेहबन्धा दृढा सन्तु मित्राणि च सदा सुखी। परिवारः सदा तुष्ट भवतु ते जनोत्सवे।
रोगा सर्वे विनश्यन्तु आरोग्यं वर्धतां सदा। बलं तेजश्च ते नित्यं दीप्तिमन्तं करोतु हि।
धनधान्य समृद्धिस्यात् मृगं भवतु शोभनम्। संतोषः परमं धनं तव जीवन संचये।
धैर्यं धृत्वा गच्छ नित्यं सफलो भव सर्वा। विघ्ना सर्वे निवार्यन्ता जयस्ते पन्भानुगा।
कर्मण्येवाधिकारस्ते फलमस्तु शुभं सदा। नहि श्रम व्यर्थो भवे जीवनस्य प्रगतये।
गुरव पूज्यतां नित्यं माता पिता च सेविता। तत्प्रसादात् भवेत् सिद्धि सर्वकार्येषु ते सदा।
नवीनं वर्षमागतं नूतनाशः प्रस्फुरन्तु। हृदि ते सन्तु धन्यम्।
समृद्धिर्भवतु ते नित्यं कीर्तिर्भवतु विस्तृता। सद्गुणैः भूषितो नित्यं लोकहिते रतः भुवि।
सूर्यवत् तेजसा युक्ता चन्द्रवत् शीतल भव। जनाय
पन्था श्रेष्ठः संयमः परमं धनम् एताभ्यां जीवनं नित्यं सुफलं भवतु ध्रुवम्
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया तव जन्मदिने स्मिन् शुभाशिषः प्रदीयताम्
भवतु ते जीवनं मम्यम् सफलं च निरन्तरं स्नेहपूर्णं हृदयं तव आनन्देन सदायुतम्
अनेन जन्मदिने तव वर्धन्तां शुभसंकल्पाः दीर्घायु सुखसम्पत्तिं ददातु ईश्वरः सदा
इति शुभाशिष पूर्णा जन्मदिने प्रदीयते मंगलं ते सदा भूया जीवनं सफलं भवेत् शिशपूरणा जन्मदिने प्रदीयते मंगलं ते सदा भूयात् जीवनं सफलं भवेत् पारचयिता नारायण प्रसाद अधिकारी दीर्घायुं सुख संपत्तिं ददातु ईश्वरः सदा